इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा आदौ मुख्य वार्ताः केन्द्रीय मन्त्रिमण्डलेन अद्य प्रधानमन्त्री स्ट्रीट वेंडर्स आत्मनिर्भर निधि योजनायाः पुनर्गठनम् अनुमोदितम् कटरायाः वैष्णोदेवी मन्दिर मार्गे आपदुद्धरण कार्याणि सजवगत्या जायमानानि सन्ति दुर्घटनामालक्ष्य प्रधानमन्त्री नरेन्द्र मोदी दुःखं प्रकटितवान् रक्षामन्त्रिणा राजनाथ सिंहेन प्रोक्तं यत् विश्वं भारतं सामर्थ्याय न अपि तु सत्य शान्ति न्यायस्य च कृते समर्पणाय सम्मानयति अपि च अशेषे हि देशे गणेश चतुर्थ्याः पारम्परिकोल्लासः सोत्साहेन समारब्धः अथ वार्ताः विशदीकृत्य केन्द्रीय मन्त्रिमण्डलेन अद्य प्रधानमन्त्री स्ट्रीट वेंडर्स आत्मनिर्भर निधि योजनायाः पुनर्गठनम् अनुमोदितम् मन्त्रिमण्डलेन अस्याः योजनायाः ऋणावधिः 24,000,000 दिसम्बर मासस्य 31 दिनाङ्कात् 30,000,000 मार्च मासस्य 31 दिनाङ्कं यावत् समेधितुम् अनुमतिः प्रकटिता योजनायाः अस्याः आहत्य परिव्ययः 32,300,000,000,000 वर्तते पुनर्गठितयोजनायां प्रथमद्वितीयदेयमूल्ययोः ऋणवृद्धिः ऋणपरिशोधकेभ्यः UPI लिंक क्रेडिट कार्ड इत्येतयोः प्रावधानं सूक्ष्मविक्रयव्यवहाराय समूहविक्रयव्यवहाराय च डिजिटल कैशबैक प्रोत्साहनम् इत्येते विषयाः सम्मेलिताः जम्मूकश्मीरस्य कटरानगरस्य वैष्णोदेवीमार्गे गतदिने प्रचण्डवृष्ट्या दुरापन्नेन भूस्खलनेन नैके जनाः अपमृत्युम् अवाप्नुवन् रक्षाप्रवर्तकैः व्रणितायाः कटरायाः सामुदायिकस्वास्थ्यकेन्द्रे प्रापिताः सुरक्षाबलेन तत्र मार्गे बद्धेभ्यः तीर्थयात्रिभ्यः अपि आवश्यकचिकित्सोपकरणानि प्रापितानि केन्द्रीयमन्त्री डॉ जितेन्द्रसिंहः अवोचत् यत् जम्मूनगरे तवी नद्याः जलस्तरः न्यूनो जातः किन्तु चिनाब नदी साम्प्रतमपि विपत्तिचिह्नस्य समीपे प्रवहति एकस्मिन् सोशल मीडिया सन्देशे असौ प्रावोचत् यत् SDRF NDRF अर्धसैनिकबलानि स्थलीयसैन्यबलानि वायुदलसैनिकाश्च नागरिक प्रशासनेन सह रक्षाभियाने प्रवृत्तास्सन्ति तेन इदमपि प्रोक्तं यत् स्थितिमालक्ष्य सः निरन्तरं जम्मूनगरस्य संभागीयायुक्तेन रमेशकुमारेण सह सम्पर्करतो विद्यते अमुना विज्ञापितं यत् विद्यालयेभ्यः महाविद्यालयेभ्यश्च स्थगनादेशः प्रसारितः सहैव सामान्यजनानां सुरक्षार्थम् अनावश्यकगमनागमनस्य परिहारोऽपि परामृष्टः प्रधानमन्त्रिणा प्रोदीरितं यत् प्रशासनं सामान्यजनानां सहायतायै निरतमस्ति जम्मूकश्मीरस्य उपराज्यपालेन मनोजसिंह इत्यमुना मृतिकानां परिवारेभ्यः संवेदना व्यक्तीकृता सहैव अधिकारिभ्यः व्रणितानां सहायतायै अपि निर्देशो दत्तः अद्य रक्षामन्त्री राजनाथसिंहः प्रावोचत् यत् अप्रत्याशित भूराजनैतिकस्थितिं दृष्ट्वा सर्वप्रकारकाणां सुरक्षासमस्यानां कृते सशस्त्रसेनाः सज्जायाः भवेयुः मध्यप्रदेशस्य महूनगरस्य सेनायुद्धमहाविद्यालये रणसंवादस्य भाषणे सः अवदत् यत् भारतस्य पुरतः समस्याः अधिकाः सन्ति अस्माकं साहसः इतोऽपि दृढः वर्तते सः अवदत् यत् विश्वं न केवलम् अस्माकं बलस्य कृते अपि तु सत्य शान्त्यर्थं न्यायार्थं च कृते अस्माकं समर्पणस्य कृते अपि अस्मान् आद्रियते
India has never been a nation that seeks war. We have never initiated aggression against anyone. However, the present geopolitical reality is quite different. Even though we do not harbor any aggressive intent, if someone challenges us, it becomes imperative that we respond with strength. To do so, we must continuously enhance our defense preparedness. This is why training, technological advancement, and a sustained dialogue with partners are of utmost importance for us.
जम्मूकश्मीरे प्रचण्डवृष्ट्या उत्तररेलमार्गस्य 45 रेलयानानि निरस्तीकृतानि अवधेयास्पदं वर्तते यत् 25 रेलयानानि अल्पकालं यावत् स्थगितानि अद्य नवदिल्ल्याम् एकस्मिन् जनसञ्चारपटले उत्तररेलमार्गस्य मुख्यजनसम्पर्क अधिकारी अवदत् यत् जम्मू तवी श्री माता वैष्णोदेवी कटरा पठानकोट नवदिल्ली रेलस्थानकेषु सहायिकापीठस्य स्थापना कृता अस्ति। जम्मूनगरस्य कृते सहायिका सेवा दिल्लीनगरस्य कृते 9771637871 इति वर्तते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। केन्द्रीयगृहमन्त्रिणा अमितशाहेन प्रोक्तं यत् ऑपरेशन सिन्दूर, ऑपरेशन महादेव इत्येताभ्याम् आतंकवादिनां कृते स्पष्टः सन्देशः प्रदत्तः। श्रीशाहः अद्य भारतीयसेनायाः जम्मूकश्मीर आरक्षिबलस्य सीमासुरक्षाबलस्य च वीरसैनिकैः सह मेलनं कृत्वा तान् सम्मानितवान्। अस्मिन्नवसरे असौ प्रोक्तवान् यत् ऑपरेशन सिन्दूर इत्यनेन जनेभ्यः सन्तुष्टिः दत्ता, परन्तु ऑपरेशन महादेव इत्यनेन सा सन्तुष्टिः आत्मविश्वासेन परिवर्तिता। पंजाबे जलाप्लावस्य स्थितिः गुरुतरावस्थायां वर्तते। रावी व्यास सतलुज नदीनां प्रवाहः तीव्रतरो जातः, येन विपद्ग्रस्तेभ्यः जनपदेभ्यः सञ्चेतना निस्सारितास्ति। रणजीत सागर सेतुबन्धात् पौंग भाखड़ा सेतुबन्धाच्च नियन्त्रित मात्रायां जलविमोचनेनापि स्थितिः गभीरा दृश्यते। सर्वेषामपि अधिकारिणाम् अवकाशः अगस्त मासस्य 30 दिनांकं यावत् निरस्तीकृतः। पठानकोट, गुरुदासपुर, फाजिल्का, फिरोजपुर, कपूरथला इत्येतान् समेत्य 7 जनपदानि उच्चसञ्चेतनायां वर्तन्ते। गणेशचतुर्थ्याः उत्सवः अशेषे हि देशे अतीव हर्षोल्लासेन समाचर्यते। दिवसोऽयं भगवतः श्रीगणेशस्य जन्मप्रतीकत्वेन प्रथितो विद्यते। 10 दिवसं यावत् जायमानस्य उत्सवस्य अयम् आरम्भसूचकः विनायकचतुर्थीत्वेन गणेशोत्सवत्वेन चानुष्ठीयते। अत्रावसरे जनाः स्वगृहेषु मृत्तिकया गणेशप्रतिमां निर्मान्ति, तस्याश्च पूजाञ्च विदधति। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी च अवसरेऽस्मिन् समेभ्यः देशवासिभ्यः शुभकामनां प्रकल्पितवन्तौ। जम्मूप्रदेशे प्रचण्डवृष्ट्या उत्तररेलमार्गस्य 45 रेलयानानि निरस्तीकृतानि। अवधेयास्पदं वर्तते यत् 25 रेलयानानि च अल्पकालं यावत् स्थगितानि। अद्य नवदिल्ल्याम् एकस्मिन् जनसञ्चारपटले उत्तररेलमार्गस्य मुख्य जनसम्पर्क अधिकारी अवदत् यत् जम्मूतवी श्रीमाता वैष्णोदेवी कटरा पठानकोट नवदिल्ली रेलस्थानकेषु सहायिका पीठस्य स्थापना कृता अस्ति। एकवारं पुनः मुख्यवार्ताः। केन्द्रीयमन्त्रिमण्डलेन अद्य प्रधानमन्त्री स्ट्रीट वेंडर्स आत्मनिर्भर निधि योजनायाः पुनर्गठनम् अनुमोदितम्। कटरायाः वैष्णोदेवी मन्दिरमार्गे आपदुद्धरणकार्याणि सजवगत्या जायमानानि सन्ति। दुर्घटनामालक्ष्य प्रधानमन्त्री नरेन्द्रमोदी दुःखं प्रकटितवान्। रक्षामन्त्रिणा राजनाथसिंहेन प्रोक्तं यत् विश्वं भारतं सामर्थ्यायन अपितु सत्यशान्तिन्यायस्य च कृते समर्पणाय सम्मानयति। अशेषे हि देशे गणेशचतुर्थ्याः पारम्परिकोल्लासः सोत्साहेन समारब्धः। इति वार्ताः।